चतुर्दशोऽध्यायः गुणत्रय विभागयोगः श्री भगवानुवाच परम् भूय प्रवक्ष्यामि ज्ञानानाम् ज्ञानमुत्तमम्
यज्ञम् कामम् यः सर्वे परम् सिद्धिमितो गताः सर्वभूतानां ततो
भवन्तम्
ब्रह्म
प्रकृति
महाबाहो ज्ञानसंज्ञेन
चानधारम्
तन्निमद्राचि कौन्तेय कर्मसंज्ञेन
देहिनम्
सर्व